एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सर्वोच्च न्यायालये प्रतिनिधि सभायाः विघटनस्य विरूद्धे पञ्जीकारितेषु आदेशावियाचन निवेदनेषु अद्य सर्वकारीय पक्षस्य विमर्शनम् प्रारभमाणम् वर्तते। सर्वोच्च न्यायालयस्य सांवैधानिक न्यायपीठे आदेशावियाचन निवेदकानाम् पक्षता ह्यो विधि व्यवसायिनाम् विमर्शनस्य समाप्तेः कारणात् अद्य सर्वकारीय पक्षस्य विमर्शनम् प्रारभते। अद्यतने श्रवणे महान्यायाधिवक्त्रा अग्निप्रसाद खरेलेन सह सर्वकारीयः अधिवक्तारः प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः एतस्य नैजाः अधिवक्तारश्च विमर्शनम् प्रारभन्ते। गतदिवसीय श्रवणे आदेशावियाचन निवेदकाः अधिवक्तारः लोकेन्द्र बहादुर ओली, अमिता गौतम पौडेलः, कलम बहादुर खत्रे, मणिराम उपाध्यायः, तुलसी शृङ्खडा च अन्य विधि व्यवसायिनश्च व्यमृशन्। अस्यैव माघस्य चतुर्थ दिवसात् सांवैधानिक न्यायपीठे निरन्तरं विहिते श्रवणे निवेदकानां पक्षतः अष्टषष्ट्या विधि व्यवसायिभिः विमर्शनं विहितम् आसीत्। कोरोना विषाणोः विरोधिनः टीकाकरणाय सर्वा लक्षिताः व्यक्तयः स्वास्थ्य जनसंख्या मन्त्रालयेन अनुरुद्धाः सन्ति। मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे बाल स्वास्थ्य टीकाकरण शाखा याः प्रमुखः डाक्टर झलक गौतमः साम्प्रतं प्रयुक्तं कोविडशील्ड टीकाकरणं सुरक्षितं प्रभावकारि चास्तीति प्रमाणितं वर्तते इत्यतः टीकाकरणाभियानस्य प्राथमिकतायां स्थापिताः सर्वाः व्यक्तिः टीकाकरणाय अन्वरुणत। डाक्टर गौतमः टीकाकरणस्य अनन्तरं कतिपयेषु जनेषु साधारणः प्रभावः दृष्टः सन्नपि कतिचित् कालानन्तरं प्रभावः विनष्टः, गभीर प्रभावो न कुत्रापि दृष्टः इत्यज्ञापयत्। अत्रान्तरे कोरोना विषाणोः संक्रमणात् ह्य अतिरिक्ताः 88,102 जनाः मुक्ताः वर्तन्ते। ह्य आराष्टम् सहस्रत्रयस्य 78,103 च निदर्शनानां पीसीआर विधिना परीक्षणे विहिते सति 75% जनेषु कोरोना संक्रमणं पुष्टिभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्य कोरोना संक्रमणेन नेपाले अतिरिक्तं जनद्वयं मृतम्। एतदनु ह्यस्तनावधि आराष्टम् संक्रमणेन मृतानां जनानां समग्र संख्या 1,239 च प्राप्तास्ति। ह्यस्तनावधि नेपाले आराष्टम् कोरोना विषाणो 1,494,500 सक्रिय संक्रान्ताः जनाः वर्तन्ते इति मन्त्रालयो ज्ञापयति। कोरोना संक्रमणेन सप्ताहेस्मिन् बेलायतदेशे त्रयः नेपालिनः मृताः इति आवासीयतर नेपाली संघेन ज्ञापितं वर्तते। अनेन सहैव कोरोना संक्रमणेन विदेशे मृतानां नेपालीनां संख्या 30,103 प्राप्तेति आवासीयतर नेपाली संघस्य अन्तर्गतायाः स्वास्थ्य समितेः संयोजकः संजीव सापकोटा अज्ञापयत्। नेपाल सर्वकारस्य अनुरोधे चीन सर्वकारेण कोविड 19 विरोधी लक्षत्रयस्य परिमाणस्य टीकाकरणं प्रदास्यते। अनुदानस्वरूपेण नेपाल सर्वकाराय प्रदास्यमानं टीकाकरणमेतत् शीघ्रातिशीघ्रं प्रदातुं नेपाल सर्वकारस्य सम्बद्ध निकायै सह निकट सम्पर्के स्थित्वा कार्यं विधीयमानमस्तीति चीन देशीय राजदूतावासो ज्ञापयति। राष्ट्रपतिना विद्यादेवी भण्डारिणा पोर्चुगल देशस्य राष्ट्रपतो मार्केलो रिवेलो डी सौसा इत्यस्य पुनर्निर्वाचनम् आलक्ष्य अस्मै वर्धापनम् ज्ञापितम् वर्तते। राष्ट्रपतिना भण्डारिणा पोर्चुगल देशीय राष्ट्रपतये ह्यो वर्धापन सन्देशम् सम्प्रेष्य पोर्चुगल देशस्य निरन्तरम् शान्ति प्रगति समृद्धि धीनाम कामना विहितास्ति। नेपाल पोर्चुगल देशयोर्मध्ये विद्यमाने जनस्तरस्य निकट सम्बन्धे बलं ददत्या राष्ट्रपतिना भण्डारिणा भविष्यति द्विपक्षीय सम्बन्धः सहयोगश्च इतोऽपि विस्तृतो भविष्यतः इति विश्वासः सन्देशे व्यक्तोऽस्तीति परराष्ट्र मन्त्रालयो ज्ञापयति। सत्तारूढस्य नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य बागमती प्रदेश समित्या अस्यैव माघस्य त्रयोविंशे दिवसे काष्ठमण्डपे जनसभा आयोक्ष्यते इति ज्ञापितमस्ति। प्रतिनिधिसभायाः विघटनमनु निर्वाचनस्य घोषणायाः पश्चात् उत्पन्नस्य नवीन घटनाक्रमस्य विषये जनस्तरे सन्देशं प्रवाहयितुं सवेयम् आयोज्यमानास्तीति नेकपा दलस्य बागमती प्रदेश समितेः सचिवः खेम प्रसाद लोहनी अवोचत। सभायां प्रधानमन्त्रिणा दलस्य अध्यक्षेण च केपी शर्मा ओलिना सहितैः शीर्ष नेतृभिः सम्बोधनस्य कार्यक्रमोस्तीति समितिरियं ज्ञापयति। काष्ठमण्डपस्य यातायात सञ्चालनावरोधनस्य निवारणस्य उद्देश्येन सभायाः आयोजनास्थलस्य रूपेण नारायणहिटी प्रासाद संग्रहालयस्य दक्षिणद्वार निकटस्थः मार्गः प्रचितोस्तीति च समित्या ज्ञापितं वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड नेपाल समूहस्य केन्द्रीय समितेः उपवेश अद्य पूर्वाह्नस्य एकादश वादने वसति। देशस्य पश्चात्तन राजनीतिक घटनाक्रमस्य प्रतिनिधिसभायाः विघटनमनु दलस्य पक्षतः देशव्यापी रूपेण विहितस्य जनप्रदर्शनस्य भावि कार्यक्रमाणां कार्ययोजनायाश्च विषयेषु विमृष्टुम् उपदेशः आहूतो स्थिति केन्द्रीय कार्यालयस्य सचिवः श्रीराम ढकालः अज्ञापयत्। नेपाल दूरसञ्चार प्राधिकरणेन एकत्रिंशति जनपदेषु निःशुल्कम् अन्तर्सञ्जाल सेवा प्राप्यतेति ज्ञापितं वर्तते। प्राधिकरणेन दूरसञ्चार कोषस्य वित्तं प्रयुज्य एकत्रिंशतो जनपदानां नगर पालिकासु ग्रामपालिकासु वडा कार्यालयेषु सामुदायिक विद्यालयेषु सामुदायिक स्वास्थ्य संस्थासु चिकित्सालयेषु निःशुल्कम् अन्तर्सञ्जाल सेवा प्राप्यतेति प्राधिकरणस्य प्रवक्ता मीन प्रसाद अरियालः अज्ञापयत्। प्राधिकरणेन एतेषु जनपदेषु वर्षद्वयावधये निःशुल्कम् अन्तर्सञ्जाल सेवा प्रदीयते इति प्रवक्ता अरियालः अबोधयत्। सांविधानिक परिषदा संसदीय श्रवणाय प्रेषितं पत्रं सभामुखेन अग्निप्रसाद सापकोटा विधेयेन ह्य प्रतिपेषितं वर्तते। परिषदा विभिन्नानां आयोगानां पदाधिकारिणां सदस्यानां च नियुक्ताये परामृश्य संसदीय श्रवणाय संघीय संसदा सचिवालये पत्रं प्रेषितम् आसीत्। शङ्खुवासभा जनपदे निर्माणाधीनायाः 900 मेगावट मितक्षमतायाः अरुण तृतीय जलविद्युत परियोजनायाः कार्यं प्रतिशतं 40% सम्पन्नमस्ति। परियोजनया नद्यः जलान्तरणाय 29,100,000 मीटरमितस्य भूमिगत मार्गस्यापि निर्माणं सम्पन्नम्। भूमिगत मार्गे जल प्रत्यावर्तनाय सर्वाणि कार्याणि च सम्पन्नानि इति च सतलज निर्माण संस्थानस्य कार्यकारीअधिकृतः अरुण धिमालः अज्ञापयत्। प्रमुख निर्वाचन आयुक्तेन दिनेश कुमार थपलिया विधेयेन मतदातृनामावलीम् अद्यावधिकीकृत्य त्रुटिरहितां विधातुं मतदानस्थल मतदान केन्द्राणां पुनरावलोकन समय कार्यविधेः अनुसारेण उपयुक्त स्थानेषु अनुकूल स्थानेषु च केन्द्राणि निर्धारयितुञ्च निर्दिष्टं वर्तते। आगामिनः वैशाख मासस्य 17 सप्तविंशे च दिवसे सम्पत्समानस्य प्रतिनिधिसभायाः सदस्यानां निर्वाचनस्य पूर्वकार्यार्थं भक्तपुरे उपविष्टे उपवेशे प्रमुख निर्वाचन आयुक्तः थपलिया एवं निरदिशत। इति समाचाराः।